Sairam, dear listeners, and welcome back to the studios of Radio Sai Prashanthirinilayam, giving you live broadcast every Thursday in the Asia stream of Radio Sai. As the proceedings in the Sai Kulwant Hall have ended just now, it's now time for us to get back to the evening session of this Thursday live, and this is Team Radio Sai's Ganesh inviting you all to yet another new episode of the Radio Sai Vedam Tutor. Today, we shall continue with the Aruna Prashnam, and without any further delay, over to Praveena sir.
Om Sri Sai Ram. We shall start with Ganesha Prarthana Mantra, chanting together.
Gananantva Ganapati Gum Havamahe Kavinkavinamupamashravastamam Jeshtharajam Brahmanam Brahmanaspata Arashrunvannotivhissedasadhanam Prano Devi Saraswati Vajevir Vajinivate Dhinama Vitriyavato Ganeshaya Namaha Saraswatye Namaha Shri Gurubhyo Namaha Harihi Om Bhadram Karne Vishrunuyama Devaha Bhadram Pashye Makshabhirya Jatraha Sthirairangai Estushtuvagum Sastanubhihi Vyasheva Devahi Tayyadayuhu Swastina Indro Vridhashravaha Swastina Pusha Vishwavedaha Swastinastarksho Arishtanemihi Swastino Brihaspatirdharatu Om Shanti Shanti Shanti
Saram, before we proceed, we shall once revise those three paragraphs that we had learnt in the last session. So these three verses or paragraphs numbering 110, 111 and 112. We'll chant together the Samhita part of it and then we'll proceed to learn the next paragraph. We'll chant together now.
Vrishtika maschinvita Apo vai vrishtihi Parjanyo varshuko bhavati Ya evam veda Amaya vichinvita Apo vai bheshajam Bheshajameva smai karoti Bheshajameva smai karoti Sarvamayurete Avicharagraschinveta Vajrava apaha Vajrova apaha Vajrameha bratrvebhya praharate Srunuta enam Tejaskamo yashaskamaha Brahma varchasakama swargakamaschinveta Eta vadvava aste yavadetat yavadevaste tadavarande tasyetadvratam varshatiradhavet amrutam vai apaha amrutasyanam taritye napsumutra purisham kuryat Na nishthivet, na vivasanas jnayat, guhyova esho ogrihe, etasyagne ranatidahaya, na pushkara parna nihiranyam vadhitishtet, etasyagne ranabhyarohaya, na kurmasyasniyat, Nodakasyat dhatu kanye namo dakani bhavante akhatuka apaha yayetam agrinchinute yauchaina mevam veda.
Please repeat after me twice.
ఇమానుకం భువనాశీషధేమ ఇమానుకం భువనాశీషధేమ
ఇంద్రశ్చ విశ్వే చ దేవాః
ఇంద్రశ్చ విశ్వే చ దేవాః ఇంద్రశ్చ విశ్వే చ దేవాః యజ్ఞం చ
నస్తన్వం చ ప్రజాం చ
నస్తన్వం చ ప్రజాం చ
ఆదిత్యైరింద్రస్సగణో మరుద్భిః
అస్మాకం భూత్వవితా తనూనాం
అస్మాకం భూత్వవితా తనూనాం
అస్మాకం భూత్వవితా తనూనాం అస్మాకం భూత్వవితా తనూనాం
ఆప్లవస్వ ప్రప్లవస్వ ఆండీభవ జమా ముహుః సుఖాదీం
దుఃఖనిధనాం ప్రతిముంచ స్వస్వాం పురం
మరీచయస్వాయంభువాః
ఏ శరీరాణ్యకల్పయన్ తే దేహం కల్పయంతో మాచతే ఖ్యాస్మతిరిషత్
ఉత్తిష్ఠతమా స్వప్త
అగ్నిమిచ్ఛధ్వం భారతః
రాజ్ఞ సోమస్య तृप्तासः
राज्ञस्सोमस्य तृप्तासः राज्ञस्सोमस्य तृप्तासः
सूर्येण सयुजोषसः
सूर्येण सयुजोषसः सूर्येण सयुजोषसः
युवा सुवासाः
युवा सुवासाः युवा सुवासाः
अष्टाचक्रानवद्वारा
अष्टाचक्रानवद्वारा अष्टाचक्रानवद्वारा
नो दीस् टू पैराग्राफ्स विल रिपीट each sentence twice and chant these two paragraphs starting from imanukam
imanukam bhuvanasesha dhema imanukam bhuvanasesha dhema indrascha vishvecha devah indrascha vishvecha devah yajñancha nastanvancha prajancha yajñancha nastanvancha प्रजाञ्च आदित्यैरिन्द्रसहसेषधातो आदित्यैरिन्द्रसगणो मरुद्भिः आदित्यैरिन्द्रसगणो मरुद्भिः अस्माकं भूत्वविता तनूनाम् अस्माकं भूत्वविता तनूनाम् आप्लवस्व प्रप्लवस्व आण्डीभव जमा मुहुः आण्डीभव जमा मुहुः सुखादीन्दुःखनिधनाम् सुखादीन्दुःखनिधनाम् प्रतिमुञ्चस्व स्वाम् पुरम् प्रतिमुञ्चस्व स्वाम् पुरम् मरीचयस्वायम्भुवाः मरीचयस्वायम्भुवाः ये शरीराण्यकल्पयन् ये शरीराण्यकल्पयन् ते ते देहम् कल्पयन्तो ते ते देहम् कल्पयन्तो मा च देख्यास्मतेरिषत् मा च देख्यास्मतेरिषत् उत्तिष्ठतमा स्वप्त अग्निमिच्छध्वम् भारताः अग्निमिच्छध्वम् भारताः राज्ञः सोमस्य तृप्ता सः राज्ञः सोमस्य तृप्ता सः सूर्येण सयुजोषसः सूर्येण सयुजोषसः युवा सुवासाः युवा सुवासाः अष्टाचक्रानवद्वारा अष्टाचक्रानवद्वारा
देवानाम् पुरयोध्या
देवानाम् पुरयोध्या देवानाम् पुरयोध्या
तस्यागुम् हिरण्मयः कोशः
तस्यागुम् हिरण्मयः कोशः तस्यागुम् हिरण्मयः कोशः
स्वर्गो लोको
स्वर्गो लोको स्वर्गो लोको
ज्योतिषावृतः
ज्योतिषावृतः ज्योतिषावृतः
स्वर्गो लोको ज्योतिषावृतः
स्वर्गो लोको ज्योतिषावृतः स्वर्गो लोको ज्योतिषावृतः
यो वैताम्
यो वैताम् यो वैताम्
ब्रह्मणो वेद
ब्रह्मणो वेद ब्रह्मणो वेद
यो वैताम् ब्रह्मणो वेद
यो वैताम् ब्रह्मणो वेद यो वैताम् ब्रह्मणो वेद
अमृतेनावृताम् पुरीम्
अमृतेनावृताम् पुरीम् अमृतेनावृताम् पुरीम्
तस्मै ब्रह्म च ब्रह्म च
तस्मै ब्रह्म च ब्रह्म च तस्मै ब्रह्म च ब्रह्म च
आयुः कीर्तिम् प्रजाम् ददुः
आयुः कीर्तिम् प्रजाम् ददुः आयुः कीर्तिम् प्रजाम् ददुः
विभ्राजमानागुम् हरिणीम्
विभ्राजमानागुम् हरिणीम् विभ्राजमानागुम् हरिणीम् विभ्राजमानागुम् हरिणीम् विभ्राजमानागुम् हरिणीम्
यशसा सम्परिवृताम्
यशसा सम्परिवृताम् यशसा सम्परिवृताम्
पुरगुम् हिरण्मयीम् ब्रह्मा
पुरगुम् हिरण्मयीम् ब्रह्मा पुरगुम् हिरण्मयीम् ब्रह्मा
Now we shall chant this paragraph, repeating each sentence twice.
Devanam purayodhya, Devanam purayodhya, Tasyagum hiranmayak koshaha, Tasyagum hiranmayak koshaha, Swargo loko jyotishavritaha, स्वर्गो लोको ज्योतिषावृतः यो वैताम् ब्रह्मणो वेदा यो वैताम् ब्रह्मणो वेदा अमृतेनावृताम् पुरीम् अमृतेनावृताम् पुरीम् तस्मै ब्रह्म च ब्रह्मा च तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिम् प्रजाम् ददुः आयुः कीर्तिम् प्रजाम् ददुः विभ्राजमानागुम् हरिणीम् विभ्राजमानागुम् हरिणीम् विभ्राजमानागुम् हरिणीम् यशसा सम्परिवृता यशसा सम्परिवृता पुरगुम् हिरण्मयीम् ब्रह्मा पुरगुम् हिरण्मयीम् ब्रह्मा
विवेशा पराजिता
विवेशा पराजिता विवेशा पराजिता
पराङ्गे त्यज्यामये
पराङ्गे त्यज्यामये पराङ्गे त्यज्यामये
पराङ्गेत्यनाशके
पराङ्गेत्यनाशके पराङ्गेत्यनाशके
इह च मुत्र चान्वेते
इह च मुत्र चान्वेते इह च मुत्र चान्वेते
विद्वां देवासुरानुभयान्
विद्वान् देवासुरानुभयान् विद्वान् देवासुरानुभयान्
यत्कुमारे मन्द्रयते
यत्कुमारे मन्द्रयते यत्कुमारे मन्द्रयते
यत्कुमारे मन्द्रयते
यत्कुमारे मन्द्रयते यत्कुमारे मन्द्रयते
यद्योषित् यत्पतिव्रता यद्योषिद्यत्पतिव्रता
यद्योषिद्यत्पतिव्रता यद्योषिद्यत्पतिव्रता
यद्योषिद्यत्पतिव्रता
यद्योषिद्यत्पतिव्रता यद्योषिद्यत्पतिव्रता
अरिष्ठम् यत्किञ्च क्रियते
अरिष्टम् यत्क्रियञ्च
क्रियते
अरिष्टम् यत्क्रियञ्च
क्रियते अरिष्टम्
अरिष्टम् अरिष्टम्
यत्किञ्च क्रियते
यत्किञ्च क्रियते यत्किञ्च क्रियते
अरिष्टम् यत् अरिष्टं यत्किञ्च kriyate
arishtam yat kincha kriyate arishtam yat kincha kriyate
agnistadanuvedhate
agrestadanuvedhate ashrita sashrita sascha
shall now practice this paragraph chanting each sentence twice.
Vivesha parajita parange tyajyamahe parange tyanashake iha cha mutra chan vete vidvandevasuranubhayan yat kumare mandrayate yadyoshidyat pativrata arishtam yat kincha kriyate agnistadanuvedhate ashrita sashrita sascha
yajvano
yepyayajvanah yajvano yepyayajvanah
swaryanto
nape ekshante नापे एक्षन्ते
स्वर्यन्तो नापे एक्षन्ते इन्द्रमग्निञ्च
ये विदुः
इन्द्रमग्निञ्च ये विदुः सिकता इव संयन्ते
रश्मिभिः
समुदीरिताः
अस्माल्लोकादमुष्माच्च
ऋषिभिरदात् प्रश्निभिः
अपेतवीता विचसर्पतातः
अपेतवीत विचसर्पतातः
apetavetavi cha sarpatatah
yetrastha
purana purana
ye cha nutanah
ye trastha purana ye cha nutanah
aho bihi
arabdhiraktuhu
bhirvyaktam
aho biradbhiraktur bhirvyaktam aho biradbhiraktur bhirvyaktam.
Now we'll repeat each sentence twice of this paragraph.
Yajvano yepya yajvanah Swaryanto napekshante Indramagrincha ye viduhu Sikata iva sayyante Rashmivissa mudirita Asma lokadamushmacha Rishibhiradat prishnibihi Apetavetavicha sarpatatah Yetrastha purana ye cha nutanah Aho biradbhiraktur bhirvyaktam
Om Shanti Shanti Shantihi Bhadram
Karne Vishrunuyama Devah Bhadram Pashye Maksha Viryajatrah Thirairangai Estushtuvagum Sastanubhihi Vyashema Devahi Tanyadayuhu Swastina Indro Vriddhashravah Swastina Pusha Vishwavedah Swastina Starksho Arishtanimihi Swastino Brihaspatir Dadhatu Om Shanti 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 Yadakshara Parabhrashtam Matra Hinam Tu Yadbhavet Tat Sarvam Kshamyatam Deva Narayana Mostute Visarga Bindu Matrani Pada Padaksharani Cha Nyunani Cha Tiriktani Kshamasvasa Ishvara Aparadha Sahasrani Kriyante Harnishanmaya Daso Yamiti Mamatva Kshamasvasa Ishvara Anyatha Sharanam Nasti Tvameva Sharanam Mama Tasmat Karunya Bhavena Raksha Raksha Saishvara Harihi Om Tat Sat Sri Saishvara Arpanamastu.
With this we come to an end to this week's Radio Sai Vedam Tutor. In the coming class we shall continue with the Aruna Prashnam. And without any further delay, I hand over the mic to Brother Vishu to take over with the Radio Sai Bhajan classroom. Sai Ram and happy listening.